ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। मैत्रेय उवाच, निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्। ऋषिरुवाच, माखिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते, भगवांस्तेक्षरो गर्भमदूरात् सम्प्रपत्स्यते, धृतव्रतासि भद्रं ते दमेन नियमेन च, तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज। सत्त्वया राधितः शुक्लो वितन्वन्मामकं यशः, चेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः। मैत्रेय उवाच, देवहूत्यपि सन्देशं गौरवेण प्रजापतेः, सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम्। तस्यां बहुतिथे काले भगवान् मधुसूदनः कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि, अवादयंस्तदाव्योम्नि वादित्राणि घनाघनाः, गायन्ति तं स्म गन्धर्वा नृत्यन्तप्सरसो मुदा, पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः, प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च, तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितं, स्वयम्भू साकमृषिभिर्मरीच्यादिभिरभ्ययात्। भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्, तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्, सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितं, प्रदृश्यमाणैरसुभिः कर्दमं चेदमभ्यधात्। ब्रह्मोवाच, त्वया मे पचितिस्तात् कल्पिता निर्व्यलीकतः, यन्मे संजगृहे वाक्यं भवान् मानदमानयन्। एतावत्येव शुश्रूषा कार्यापितरिपुत्रकैः, पाठमित्यनुमन्येत गौरवेण गुरोर्वचः। इमा दुहितरः सभ्य तव वत्ससु मध्यमाः, सर्गमेतं प्रभावै स्वैर्ब्रह्मयस्यन्त्यनेकधा। अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथा रुचि, आत्मजा परिदय्यद्य विस्तृणीः यशो भुवि। वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया, भूतानां शैवधिं देहं बिभ्राणं कपिलं मुने, ज्ञानविज्ञानयोगेन कर्मणामुद्धरञ्जटाः, हिरण्यकेशः पद्माक्षः पद्ममुद्रा पदाम्बुजः, एष मानविते गर्भं प्रविष्टः कैटभार्दनः। अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति, अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः, लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः। मैत्रेय उवाच, तावाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः, हंसो हंसेन यानेन त्रिधाम परमं ययौ, गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः, यथोदितं स्वदुहित्रीः प्रादाद्विश्वसृजां ततः, मरीचये कलां प्रादादनसूयामथात्रये, श्रद्धामङ्गिरसे यच्छत्पुलस्याय हविर्भुवं, पुलहाय गतिं युक्तां कृतवे च क्रियां सतीं, ख्यातिं च भृगवे यच्छद्वसिष्ठायाप्यरुन्धतीम्, अथर्वणे ददाच्छान्तिं यया यज्ञो वितन्यते, विप्रसभान् कृतोद्वाहान् सदारान् समलालयत्। ततस्तऋषयः क्षत्तः कृतदारा निमन्त्र्यतम्, प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्, सजावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्, विविक्त उपसङ्गम्य प्रणम्य समभासत। अहोपापच्यमानानां निरये स्वैरमङ्गलैः, कालेन भूयसा नूनं प्रसीदन्तीह देवताः, बहुजन्मविपक्वेन सम्यग् योगसमाधिना, द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्। स एव भगवानद्य हेलनं नगणय्यनः, गृहेषु जातो ग्राम्याणां यस्मानां पक्षपोषणः। स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे, चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः। तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव, यानि यानि च रोचन्ते स्वजनानां रूपिणः, त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम्। ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रियापूर्तमहं प्रपद्ये, परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्, आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये। आस्माभिपृच्छेद्यपतिं प्रजानां त्वयावतीर्णार्णौ ताप्तकामः, परिव्रजत्पदवीमास्थितोऽहं चरिष्येतां हृदि युञ्जन्विशोकः। श्रीभगवानुवाच, मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके, अथा जनि मया तुभ्यं यदवोचमृतं मुने, एतन्मे जन्मलोकेऽस्मिन् मुमुक्षूणां दुराशयात्। प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने एष आत्मपथो व्यक्तो नष्टः कालेन भूयसा तम् प्रवर्तयितुम् देहमिमम् विद्धि मया भृतम् गच्छ कामम् मया पृष्टो मयि सन्न्यस्तकर्मणा जित्वा सुदुर्जयम् मृत्युममृतत्वाय माम् भज मामात्मानम् स्वयम् ज्योति सर्वभूतगुहाशयम् आत्मन्येवात्मना वीक्ष्य विशोको भयमृच्छसि मात्रा आध्यात्मिकीम् विद्याम् शमनीम् सर्वकर्मणाम् वितरिष्ये यया चासौ भयम् चातितरिष्यति। मैत्रेय उवाच एवम् समुदितस्तेन कपिलेन प्रजापतिः दक्षिणीकृत्य तम् प्रीतो वनमेव जगामः व्रतम् सास्थितो मौनमात्मैकशरणो मुनिः निःसङ्गो व्यजरक्षोणी मनग्निरनिकेतनः मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् गुणावभासे विगुण एकभक्त्यानुभाविते निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक् प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः आत्मानम् सर्वभूतेषु भगवन्तमवस्थितम् अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि इच्छाद्वेषविहीनेन सर्वत्र समचेतसा भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।